इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका मुदिता वेतालः। आदौ मुख्य वार्ताः। भारतीयान्तरिक्ष यात्रिणं नीय भारतस्य अन्ताराष्ट्रिय अन्तरिक्षाभियानः आगामिनि मासे आरप्स्यते। पश्चिम बंगालस्य विकासस्य विषये बांग्लादेशस्य अधिकारिभिः कृताः टिप्पण्यः भारतेन अस्वीकृताः। बांग्लादेशः स्वस्य अल्पसंख्यकानाम् अधिकाराणां च रक्षणे ध्यानं प्रददात्। छत्तीसगढ़स्य सुकमा जनपदे द्वाविंशतिः माओवादिभिः आत्मसमर्पणं कृतम्। केन्द्रेण रडार इति विधिक माप विज्ञान नियमान्तर्गतं वाहनानां गतिमापनाय प्रयुक्तानां रडार उपकरणानां कृते नूतनाः नियमाः अधिसूचिताः। श्रीमद्भगवद्गीता भरतमुनेः नाट्यशास्त्रं च यूनेस्को इति संस्थया मेमोरी ऑफ द वर्ल्ड रजिस्टर इत्यत्र समाविष्टे। अपि च स्क्वैश क्रीडायां भारतस्य वीर चोटरानी इत्येषः अद्य मलेशियायाः मोहम्मद सयाफिक कमालं पराजित्य उपान्त्यचक्रे प्रविष्टवान्। अथ वार्ताः विस्तरेण। भारतीयान्तरिक्ष यात्रिणं नीय भारतस्य अन्ताराष्ट्रिय अन्तरिक्षाभियानः आगामिनि मासे आरप्स्यते। अन्तरिक्ष परमाणु ऊर्जा राज्यमन्त्रिणा डॉ जितेन्द्र सिंहेन आगामिषु मासेषु भारतीय अन्तरिक्ष अनुसन्धान संघटनस्य प्रमुख भविष्यकालिक योजनानां समीक्षायै आयोजितस्य उच्चस्तरीयोपवेशनस्य अनन्तरं एषा घोषणा कृता। आगामी मानवान्तरिक्षयानम् इसरो इत्यस्य महत्वपूर्ण श्रृंखला विषये मन्त्रिणा उक्तं यत् भारतं स्वीय आगामी अन्तरिक्षाभियानाय सन्नद्धम् अस्ति। पश्चिम बंगालस्य विकासस्य विषये बांग्लादेशस्य अधिकारिभिः कृताः टिप्पण्यः भारतेन अस्वीकृताः। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः एतां टिप्पणीम् आलक्ष्य उक्तवान् यत् बांग्लादेशे अल्पसंख्यकानाम् उपरि प्रचलितोत्पीडनस्य विषये भारतस्य समाह्वानैः सह सम्बन्धम् एकं छद्म कपटपूर्णं च प्रयासः इति उक्तवान्। यत्र एतादृशेषु प्रकरणेषु संलग्नाः अपराधिनः अद्यापि मुक्ताः भ्रमन्ति। सः अवदत् यत् अनुचित टिप्पण्यः कृत्वा सद्गुणानां प्रदर्शनं विहाय बांग्लादेशः स्वस्य अल्पसंख्यकानाम् अधिकाराणां च रक्षणे ध्यानं प्रददात्। छत्तीसगढ़स्य सुकमा जनपदे द्वाविंशतिः माओवादिभिः आत्मसमर्पणं कृतम्। एतेषु नव महिलाः सन्ति। सार्ध चत्वारिंशत् लक्ष रूप्यकाणां पारितोषिकम् अपि उद्घोषितम् आसीत्। माओवादिभिः बलस्य केन्द्रीय रक्षिताक्षिबलस्य च वरिष्ठाधिकारिणां समक्षम् आत्मसमर्पणं कृतम्। प्रत्येकं माओवादिभ्यः राज्यप्रशासनस्य पुनर्वासनीतेः अन्तर्गतं 50,000 रूप्यकाणां प्रोत्साहन राशिः प्रदत्ता। एतदतिरिच्य अन्य सौविध्यमपि प्रदत्तम्। केन्द्रेण रडार इति विधिक माप विज्ञान नियमान्तर्गतं वाहनानां गति मापनाय प्रयुक्तानां रडार उपकरणानां कृते नूतनाः नियमाः अधिसूचिताः। उपभोक्ता कार्य खाद्य सार्वजनिक वितरण मन्त्रालयेन अद्य एकस्मिन् वक्तव्ये उक्तं यत् मार्ग सुरक्षा यातायात प्रवर्तने च निष्पक्षता समेधितुम् उद्देश्यं निध्याय इमे नियमाः जुलाई मासस्य प्रथम दिनात् प्रवर्तिता भविष्यन्ति। प्रशासनेन स्पष्टीकृतं यत् उपग्रहाधारित टोल शुल्क प्रणाली इत्यस्य मई मासे प्रवर्तनस्य कोऽपि निर्णयः नैव स्वीकृतः। अनेन सम्बद्ध संचार सूचनानां खण्डनं विधाय पथ परिवहन राजमार्ग मन्त्रालयेन उक्तं यत् न तु मन्त्रालयेन न च भारतीय राष्ट्रिय राजमार्ग प्राधिकरणेन अस्मिन् विषये कोऽपि निर्णयः नैव स्वीकृतः। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एयर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। श्रीमद्भगवद्गीता भरतमुनेः नाट्यशास्त्रं च यूनेस्को इति संस्थया मेमोरी ऑफ द वर्ल्ड रजिस्टर इत्यत्र समाविष्टे। केन्द्रीयमन्त्रिणः गजेन्द्रसिंहशेखावतस्य सोशल मीडिया इत्यत्र एकस्मिन् लेखस्य प्रत्युत्तरे प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्य पदक्षेपस्य प्रशंसा कृता। उक्तं च यत् अनेन निर्णयेन भारतस्य कालातीत ज्ञानं समृद्धं संस्कृति च वैश्विक मान्यता स्वीकृता। पूर्व केन्द्रीय मंत्री अनुराग सिंह ठाकुर अद्य नेशनल हेराल्ड प्रकरणम् आलक्ष्य कांग्रेस दलस्य आलोचनां कृतवान्। नवदिल्ल्यां अस्मिन् प्रकरणे एकं वार्ताहर सम्मेलनं संबोधयता श्री ठाकुरेण उक्तं यत् नेशनल हेराल्ड इत्यस्य नाम श्रवणेनैव कांग्रेस दलस्य सम्पूर्णे अपि पारिस्थितिकी तन्त्रे अव्यवस्था समागता। सः प्रतिपादितवान् यत् कांग्रेस दलं स्वस्य पुनः प्रारम्भस्य प्रयासेषु असफल एव अस्ति। श्री ठाकुरः आरोपितवान् यत् स्वातन्त्र्यात् परं कांग्रेस दलं विभिन्नेषु वञ्चना प्रकरणे संलग्नः आसीत्।
नेशनल हेराल्ड का नाम सुनते ही कांग्रेस पार्टी के पूरे इकोसिस्टम में सेंसेशन होने लगते हैं, और ऐसे सेंसेशन होने लाजमी भी हैं, क्योंकि पकड़े जो गए हैं चोरी करते हुए, और आजादी के बाद आज तक अगर आप कांग्रेस का देखेंगे एक नहीं अनेक घोटाले सामने आए हैं।
कलकत्ता उच्च न्यायालयेन मुर्शिदाबाद वक्फ अधिनियमम् आलक्ष्य विरोध प्रदर्शने संजातायां हिंसायां विस्थापित जनानाम् अभिज्ञानाय पुनर्वासाय च त्रयाणां सदस्यानां समितिः रचिता। न्यायालयेन उक्तं यत् अस्यां समित्यां राज्य विधिक सेवा प्राधिकरणस्य सदस्यं सचिवमतिरिच्य राष्ट्रिय मानवाधिकार आयोगस्य पश्चिम बंगाल मानवाधिकार प्रत्येकं सदस्यौ भविष्यतः। समितिना मे मासस्य 15 दिनांकं यावत् प्रतिवेदनं प्रस्तोतव्यम्। न्यायमूर्तेः सोमन सेनस्य राजा बसु चौधरी इत्यस्य च खण्डपीठेन उक्तं यत् अप्रैल मासस्य 12 दिनांकस्य आदेशानुसारं केन्द्रीय सशस्त्र आरक्षिबलं मुर्शिदाबादस्य हिंसाग्रस्त क्षेत्रेषु नियुक्तं भविष्यति। अद्य सम्पूर्णे विश्वे गुड फ्राइडे इति पर्व आचर्यते। दिवसोऽयं भगवतः येशु मसीहस्य शूले स्थापन दिवसत्वेन आमान्यते। अस्मिन् दिने येशु मसीहः मानवजातेः पाप निवारणाय प्रेम्णः च कृते दुःखं प्राप्य स्वप्राणानां बलिदानं कृतवान्। ईस्टर रविवासरात् पूर्वं शुक्रवासरे एतद् आचर्यते। पुनरुत्थानस्य प्रतीकभूतं भवति। प्रधानमन्त्री नरेन्द्र मोदी येशु मसीहस्य तागं संस्मरत्। अत्रावसरे श्रीमोदी सामाजिक संचार पटले अलिखत् यत् अयं दिवसः अस्मान् सदैव दया करुणा इत्यनयोः आशयाय प्रेयति। स्क्वैश क्रीडायां भारतस्य वीर चोटरानी इत्येषः अद्य मलेशियायाः मोहम्मद सयाफिक कमालं पराजित्य उपान्त्य चक्रे प्रविष्टवान्। चोटरानी इत्यनेन कमालं 3-1 इत्यंकान्तरालेन पराजितम्। सऊदी अरबस्य दम्म नगरे एशिया अंडर 18 एथलेटिक्स चैंपियनशिप इत्येतस्यां क्रीडायां भारतस्य 16 वर्षीयः निश्चयः तृतीय दिने बालकानां शॉटपुट स्पर्धायां 29.59 मीटर परिमितस्य व्यक्तिगत उत्तम प्रयासेन रजत पदकं विजितवान्। इति वार्ताः।